इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च सर्वाः सज्जताः पूरिताः। सप्तराज्येषु विस्तृतानि सप्तपञ्चाशत् संसदीयक्षेत्राणि, एकं केन्द्रशासितक्षेत्रं च अस्मिन् चरणीय मतदाने संलग्नानि सन्ति। मतदानञ्च अद्य प्रातः सप्तवादने आरप्स्यते। एतेषु क्षेत्रेषु उत्तरप्रदेश पंजाबयोः च त्रयोदश त्रयोदश, पश्चिमबंगस्य नव, बिहारस्य अष्ट, ओडिशायाः षड्, हिमाचलप्रदेशस्य चत्वारि, झारखण्डस्य त्रीणि, चण्डीगढ़केन्द्रशासितक्षेत्रस्य एकम् आसनानि च सन्ति। ओडिशाराज्यस्य द्विचत्वारिंशत् विधानसभासनानाम् अपि अस्मिन् चरणे युगपदेव निर्वाचनं भविष्यति। सप्तपञ्चाशत् लोकसभासनेभ्यः आहत्य चतुरधिकनवशतम् अभ्यर्थिनः सन्ति। निर्वाचनायोगेन स्वतन्त्रं निष्पक्षं च मतदानं सुनिश्चेतुं विस्तृतव्यवस्थाः कृताः सन्ति। निर्वाचनाधिकारिभ्यः निर्देशः प्रदत्तः यत्ते तप्ततापेन उत्पद्यमानानां समाह्वानानां न्यूनीकरणाय मतदातॄणां निर्वाचनाधिकारिणां च स्वास्थ्य संरक्षणाय च उपायाः कार्यान्विताः भवेयुः। सुचारुरीत्या निर्वाचनप्रक्रिया सञ्चालनाय 90,000+ यावत् निर्वाचनाधिकारिणः नियोजिताः सन्ति। 60,10,00,000+ मतदातारः अभ्यर्थिनां भाग्यस्य निर्णयं करिष्यन्ति। वित्तीयवर्षे 2023-2023 मध्ये 7% वृद्धेः अपेक्षया भारतस्य मौलिक जीडीपी इति 23-2024 वित्तीयवर्षे 8.2% यावत् वृद्धिः भविष्यतीति अनुमानम् अस्ति। सांख्यिकी कार्यक्रम कार्यान्वयन मन्त्रालयस्यानुसारि मौलिक जीडीपी इति सामान्य मूल्येषु 23-2024 वर्षे 370,000,00,000+ स्तरं प्राप्तुम् अनुमानमस्ति। रेमल चक्रवातानन्तरं असम, मणिपुर, मेघालय, मिजोरम, त्रिपुरा, पश्चिमबंगाल इत्येतेषु प्राकृतिक आपत्सु विषये प्रधानमन्त्रिणा नरेन्द्रमोदिना चिन्ता प्रकटिता। एकस्मिन् सामाजिकान्तरजाल सन्देशे श्रीमोदी अवदत् यत् तस्य विचाराः प्रार्थनाः च तत्र ये प्रभाविताः सन्ति तेषां सर्वेषां कृते अस्ति। प्रधानमन्त्रिणा उक्तं यत् सः प्रचलितस्थितेः अवलोकनं कृतवान् तथा च केन्द्रसर्वकारेण राज्येभ्यः सर्वविध सहयोगाय आश्वासितम्। गृहमन्त्री अमितशाहः उक्तवान् यत् सः राज्यानां मुख्यमन्त्रिभिः सह अपि वार्तालापं कृत्वा स्थितेः अवलोकनं कृतवान्। अमेरिकादेशीयः राष्ट्रपतिः जो बाइडन प्रशासनेन युक्रेनाय अमेरिकाद्वारा प्रदत्तात् आयुधान् रूसदेशस्य अन्तरस्थितक्षेत्रेषु आक्रमणाय अनुमतिः प्रदत्ता। सञ्चारसूचनानुसारि खार्किवक्षेत्रे रूसदेशस्य सुदृढस्थितिम् युद्धरणे च युक्रेनस्य प्रतिकूलपरिस्थितिम् अवलोक्य निर्णयोऽयं निर्णीतः। विश्व चैम्पियनशिप इत्यस्य कांस्यपदकविजेता निशान्तदेवः प्रथमः भारतीयः पुरुषः अभवत् यः 24,000+ पेरिस ओलम्पिक क्रीडायां प्रवेशं प्राप्तवान् इति वार्ताः।